एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेलेन एतत् विक्रमवर्षीयः सम्पद शुद्धिकरण निवारण सम्बद्धः तृतीय संशोधनाध्यादेशः स्वीकृतोऽस्ति। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य अनुसारेण मन्त्री परिषदः परामर्शेन सम्पद शुद्धिकरण सम्बद्धः तृतीय संशोधनाध्यादेशः ह्यः स्वीकृतोऽस्तीति राष्ट्रपति कार्यालयस्य प्रवक्त्रा रितेश कुमार शाक्येन प्रकाशितायां विज्ञप्तौ उल्लिखितम् वर्तते। वैशाख शुक्ल पूर्णिमायां तिथौ ह्य सप्तत्युत्तर पञ्चविंश शततमी बुद्ध जयन्ती समायोजिता। बुद्ध जयन्त्या अवसरे ह्य आयोजिता बृहत् बौद्ध सभा सम्बोधयन् राष्ट्रपति रामचन्द्र पौडेल शान्तिं सहास्तित्व करूणां चाधृत्य बुद्ध दर्शनेन विश्व समुदाय स्थायित्वस्य सहकार्यस्य पारस्परिक विश्वासस्य च मार्गे अग्रेसारयितुं महत्वपूर्णं योगदानं विधीयते इति विश्वासोऽस्तीति प्रावोचत्। राष्ट्रपति पौडेल बुद्धस्य हिंसायाः मैत्र्याः करुणायाः प्रज्ञायाश्च सन्देशान् व्यवहारे रूपान्तरणे एव सबलायाः शान्तेः समृद्धेश्च आधारं लब्धुं शक्यते इति अगदत्। राष्ट्रपतिः पौडेलः वर्तमाने परिवेशे राष्ट्रियैकतां सहिष्णुतां समावेशितां च सुदृढां विधातुं भगवतः बुद्धस्य पञ्चशील सिद्धान्ताः चत्वारो आर्य सत्याश्च मार्गदर्शकाः भवितुं शक्नुवन्तीति प्रावोचत्। लुम्बिनी विश्व शान्ति मञ्चेन बुद्ध जयन्त्या अवसरे लुम्बिन्यः मृत्तिका समृद्धे मार्ग इति अभियानस्य घोषणा विहिता अस्ति। अभियानस्य अन्तर्गतं भैरहवावर्तिनि लुम्बिनी क्षेत्रे सप्तत्युत्तर पञ्चविंश शततमानां वृक्षाणां रोपणस्य कार्यक्रमो वर्तते इति मञ्चस्य संयोजकः वासु गौतमः असूचयत्। काष्ठमण्डप उपत्यकया सह आराष्ट्रं विद्यमानासु सर्वकारीय भूमिषु सार्वजनिक क्षेत्रेषु च अवैधानिक रूपेण निर्मितानां संरचनानां त्रोटनस्य अपसारणस्य च अभियानं जायमानमस्ति। सर्वकारेण द्वितीय चरणे ह्य बागवत्यास्तटे तदीयानां सहायक नदीनां तटेषु अतीव संकटपूर्णानां वसतीनाम् अपसारण कार्यं विहितमस्ति। ह्य बल्खुस्थाने वंशीघट्टस्थाने च विशेषरूपेण कार्यम् अग्रेसारितमस्ति। अभियानम् एतत् गत शनिवासरात् काष्ठमण्डपस्य थापाथलीस्थाने बागमत्यास्तटे विद्यमानाः अवैध संरचनाः अपसार्य प्रारब्धमासीत्। सर्वकारेण प्रथमे चरणे काष्ठमण्डपस्य थापाथली सीनामंगल गौरीगांव शान्तिनगर प्रभृति स्थानेषु अतिक्रमणं कृत्वा निर्मितानां गृहकुटीराणां त्रोट अपसारणस्य च कार्यं विहितम्। तथैव गतरयु सोमवासरयु काष्ठमण्डपस्य भक्तपुरस्य च सीमावर्ती क्षेत्रे मनोहरा नद्यास्तटे निर्मिताः सहस्राधिकाः अवैध संरचनाः त्रोटिताः अपसारिताश्च वर्तन्ते। इतः पूर्वं भूमिहीनानां जनानां निश्चयनं कृत्वा गृहावासस्य उचित व्यवस्थापनं विधास्यते इति ज्ञापितम् अस्ति। अधुना अवैधानिक वसतिषु निवसन्तो जनाः काष्ठमण्डपस्य विभिन्नेषु स्थानेषु अस्थायी रूपेण स्थापिताः सन्ति। अभियानम् एतत् आराष्ट्रं संचाल्यते भूमिहीनानां समस्यायाः निराकरणं कृत्वा तेषाम् आवासस्य उचित व्यवस्था विधास्यते। काष्ठमण्डपस्य बल्खुस्थानस्य वंशीघट्टस्थानस्य च वसतिभ्य अपसारितै कतिपयै जनै गृहाणि भूमयः पैतृक सम्पदस्य किमपि नास्तीति आयस्रोतोऽपि न्यूनं वर्तते इत्युल्लिख्य सर्वकार समक्षं विवरणं प्रस्तुतमस्ति। अर्थमन्त्रिणा डा सोणिमा बाग्ले इत्यनेन परराष्ट्र मन्त्रिणा शिशिर खनालेन च सह अमेरिका देशस्य दक्षिण मध्य एशिया क्षेत्रस्य विशेषेण दूतेन सर्जियो गोर इत्यनेन पृथक् पृथक् मेलवार्ता विहिता अस्ति। अर्थमन्त्रिणा डा बाग्ले इत्यनेन सह सम्भूतायां मेलवार्तायां नेपाल अमेरिका देशयोः द्विपक्षीयस्य सम्बन्धस्य विविधेषु क्षेत्रेषु विमृष्टमस्तीति ज्ञापितं वर्तते। विशेषतया नेपाल अमेरिका देशयोः मध्ये आर्थिक सहकार्यस्य विकास सहायतायाः पारस्परिक हितस्य च विषयेषु विमृष्टमस्तीति अर्थमन्त्रालयेन ज्ञापितं वर्तते। ह्य एव परराष्ट्र मन्त्रिणा सह सम्भूते मेलने अनयोर्मध्ये नेपाल अमेरिका देशयोः सम्बन्धम् इतोऽपि सुदृढं विधातुं विमृष्टमस्तीति ज्ञापितं वर्तते। तदवसरे द्विपक्षीयस्य निवेशस्य व्यापार प्रवर्धनस्य च विषयेषु बलं प्रदाय विमृष्टम् आसीत्। ह्य शुक्रवासरे मई मासस्य प्रथमे दिवसे त्रिंशदधिक शततम अन्तर्राष्ट्रिय श्रमिक दिवस विविधै कार्यक्रमै सह समायोजित। श्रमिक दिवसस्य सन्दर्भे ह्य एव शुक्रवासरे नेपाले विभिन्नै श्रम संगठनै नैकान् कार्यक्रमान् आयोज्य श्रमिकाणां समस्यायाः विषये विमर्शनं कृतमस्ति। एतदवसरे श्रमवृत्ति सामाजिक सुरक्षा मन्त्रिणा रामजी यादवेन त्रयाणां महत्वपूर्णानां कार्यक्रमाणां घोषणा विहिता अस्ति। मन्त्रिणा यादवेन ह्य दृश्य सन्देशं प्रकाश्य पञ्चवर्षीयाया राष्ट्रिय व्यवसायजन्य सुरक्षाया स्वास्थ्य कार्यक्रमस्य च शुभारम्भो विहित इति सूचना दत्ता अस्ति। तथैव विदेशे सुस्थितैः श्रमिकैः सह सूचना प्रवाहं सरलं विधातुं नेपाली दूतावासे सुस्थितानां श्रमसहचरिणां माध्यमेन प्रतिसप्ताहं एकवारं फेसबुक इति सामाजिक सञ्जाले प्रत्यक्ष रूपेण कार्यक्रम सञ्चालयिष्यते इति मन्त्री यादव अज्ञापयत्। अथ च योगदानाधारिते सामाजिक सुरक्षा कोषे आवद्धेभ्य श्रमिकेभ्य ऋणं प्रदास्यते इति मन्त्री यादव असूचयत्। श्रमिक दिवसस्य अवसरे ह्य नेपाल ट्रेड यूनियन कांग्रेस इति श्रमिक संघटनेन आयोजिते कार्यक्रमे नेपाली कांग्रेस दलस्य सभापति गगन कुमार थापा आगामीष् पञ्चष् वर्षेष् नेपाली कांग्रेस दलेन दायित्ववाहिन सशक्तस्य रचनात्मकस्य च प्रतिपक्षिण भूमिका निरूह्यते इति प्रावोचत्। सर्वकारेण जेन्जी आन्दोलनस्य क्रमे आहतानां जनानां सूचीकरण कार्यं सम्पादितमस्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन पश्चात्तन समये द्वाविंशति जनानां नाम्नां समावेशानन्तरं जेन्जी उनाम आन्दोलने आहतानां सूचीकरण कार्यं सम्पादितमस्ति इति ज्ञापितं वर्तते।